एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेकपा एमाले दलस्य काष्ठमण्डपे संचलति एकादशे महाधिवेशने नूतन नेतृत्वस्य चयनाय ह्यस्तन दिवसाय निर्धारितं मतदानम् अद्य प्रातः अष्टवादनात् जायमानं वर्तते। मतदान प्रक्रियाया ह्य सायम् अष्टवादनम् यावदपि अप्रारभणस्य पश्चात् अतिरिक्तं पूर्वकार्यं कृत्वा अद्य प्रातः अष्टवादनात् मतदानस्य प्रक्रियां प्रारब्धम् सहमति धृतास्तीति एमाले दलीय केन्द्रीय निर्वाचनायोगेन ज्ञापितं वर्तते। एमाले दलस्य एकादश महाधिवेशने प्रत्याशिताम् प्रस्तुतवत्सु प्रत्याशिषु एकादश जनाः केन्द्रीय सदस्यपदे निर्विरोधम् निर्वाचिताः वर्तन्ते। एमाले दलीय निर्वाचनायोगस्य उपाध्यक्षस्य सानुराज पोखरेलस्य अनुसारेण लुम्बिनी प्रदेशात् चत्वारिंशद् वर्षेभ्य न्यूनवयः समूहात् लीलामणि गौतमः, महिला केन्द्रीय सदस्यपदे गोमादेवी आचार्यः, मेनुका कुमारी पोखरेल, शान्तिदेवी ढकालश्च निर्विरोधम् निर्वाचिताः सन्ति। तथैव चत्वारिंशतो वर्षेभ्य न्यून वयसमूहेभ्य केन्द्रीय सदस्येष् नरेश रोकाया, सुशील कुमार थापा च, महेश प्रदेशात् अमर कुमार यादवः, नवनीत साहश्च, मुस्लिम महिलाभ्य खाजिदा खातुन सिद्दिकी, पश्चवर्ती क्षेत्रेभ्य महिला सदस्येष् पदमी कुवारी, दक्षिण एशिया प्रवास क्षेत्रात हरिप्रसाद घिमिरे च निर्विरोधम् निर्वाचिताः वर्तन्ते। संचार सूचना प्रविधि मन्त्री जगदीश खरेलः भासते आगामिनः फाल्गुन मासस्य एकविंशे दिवसे प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य आयोजनाय अनुकूलम् वातावरणम् जायमानम् अस्ति। निर्वाचनायोगेन सह ह्यो विहिते विमर्शने मन्त्री खरेल समग्रोऽपि देशा निर्वाचनाय तत्परोऽस्तीत्यतः आयोगः, सर्वकारः, सुरक्षानिकायाः, राजनीतिकदलानि अपि निर्वाचनस्य पूर्वकार्ये संलग्नाः सन्तीति प्रावोचत। प्राविधिकैः, विधिगतैः, अन्यैः प्रक्रियागतैश्च विषयैः सह राजनीतिकविषयोऽपि महत्वपूर्णोऽस्तीति चर्चयन् मन्त्री खरेल आयोगेन उत्थापितान् विषयान् आत्मसात्कृत्य सर्वकारेण विधिमन्त्रिणः संयोजकत्वे संवादाय समिति संघटितास्तीति असूचयत्। प्रधानमन्त्रिणः सुशीला कार्किणः समक्षम् राष्ट्रिय योजनायोगस्य नवनियुक्तेन उपाध्यक्षेण डा प्रकाश कुमार श्रेष्ठेन, सदस्येन प्राध्यापकेन सुनित श्रेष्ठ हाडा इत्यनया च पदगोपनीयतयोः शपथः गृहीतोऽस्ति। शपथग्रहणानन्तरम् प्रधानमन्त्री कार्की नवनियुक्ताय उपाध्यक्षाय सदस्याय च ह्यः वर्धापनम् प्रदाय कार्यकालस्य सफलतायै शुभकामनाम् प्रायच्छत्। प्रधानमन्त्री कार्की देशस्य अवस्थाम् विचार्य जेएनजी यूनाम् आकांक्षाय अनुसारेण योजनानाम् निर्माणाय तदवसरे निरदिशत्। सर्वकारेण ऐशयिक विकासकोषात् प्राप्यमाणम् आसन्न चतुर्दशानाम् अब्जानाम् अष्टात्रिंशत कोटीनां च रूप्यकाणां सौविध्यपूर्णम् ऋणम् स्वीकर्तुम् निर्णीतम् वर्तते। सोमवासरे उपविष्टस्य मन्त्रिपरिषद उपवेशस्य निर्णयान् सार्वजनिक कुर्वन् संचार सूचना प्रविधि मन्त्री जगदीश खरेल स्ट्रेन्थेन पब्लिक फाइनान्सियल म्यानेजमेन्ट एण्ड डेभलप सर्भिस डेलिभरी इति कार्यक्रमस्य कृते ऐशयिक विकासकोषात् प्राप्यमाणम् ऋणम् स्वीकर्तुम् निर्णीतम् अस्ति इति मन्त्री खरेल असूचयत्। एवमेव कृषि विकास मन्त्रालयान्तर्गतम् संचालितायाः सेचनाधुनिकीकरणायोजनायाः कृते अधिकृतस्तरस्य अष्टौ पदस्थानानि स्वीकर्तुम् युवखेलकूद मन्त्रालयस्य अनेन सम्बद्ध निकायानाम् च संगठन व्यवस्थापन सर्वेक्षणाय स्वीकृतिम् प्रदातुम् च निर्णीतमस्तीति मन्त्री खरेलः असूचयत्। एवमेव अस्यैव पौषमासस्य द्वादश दिवसात् चतुर्दश दिवसम् यावत् काष्ठमण्डपे आयोक्ष्यमाणे नेपाल भारत संयुक्त कृषि कार्य समूहस्य नवमे उपवेशे सहभागितायै कृषि पशुपक्षी विकास मन्त्रालयस्य सचिवस्य संयोजकत्वे नेपाली प्रतिनिधिमण्डलम् संघटयितुम् उपवेशेन निर्णीतमस्ति इति च मन्त्री खरेलः असूचयत्। विधि न्याय संसदीय विषय मन्त्री अनिल कुमार सिम्हा कथयति आगामिन फाल्गुन मासस्य एकविंशे दिवसीय निर्वाचनस्य सम्पादनात् अन्य विकल्प सर्वकारस्य पार्श्वे नास्ति। निर्वाचन आयोगेन ह्य आयोजिते निर्वाचन केन्द्रित विमर्शने मन्त्री सिम्हा लोकतन्त्रे संविधाने च विश्वासं धृतवतः जनान् वर्तमान सर्वकारेण निर्वाचनस्य माध्यमेन प्रतिनिधिसभायाम् आनेतुम् ईप्सिताः वर्तन्ते इति अवोचत्। मन्त्री सिम्हा जनसंख्यायाः आधारेण समावेशिनः प्रतिनिधित्वस्य विषये विदौ आवश्यकं परिमार्जनं कर्तव्यम् अस्तीति उदैरयत्। कृषि पशुपक्षी विकास मन्त्री डाक्टर मदन प्रसाद परियार वदति कृषेः उत्पादनं प्रवर्ध्य देशे वृत्तिपादनानां सर्जनम् अद्यतनीय आवश्यकता वर्तते। सिराहा जनपदस्य औरही स्थाने ह्य आयोजिते कार्यक्रमे मन्त्री परियार युवानः वृत्तिपार्जनाय विदेशेषु पलायमानाः सन्ति, तेन च ग्रामाः युववीनाः जायमानाः वर्तन्ते चेत्यत्र चिन्तां प्राकटयत्। मन्त्री डाक्टर परियार कृषकान् उत्पादनात् आपणं यावत् सुरक्षितान् आधुनिक प्रविधौ समर्थान् कृषिक्षेत्रे यूनः आकृष्टान् च विधातुं सर्वकारेण नीति अग्रे सारितास्तीति तदवसरे असूचयत्। मकवानपुर जनपदस्य बकैया ग्रामपालिकायाः सप्तमडा क्षेत्रस्य अधेरी स्थाने ह्य ट्रैक्टरयानस्य दुर्घटनायां त्रयो जनाः मृताः वर्तन्ते। दुर्घटनायां 29 जना आहताः सन्ति। दुर्घटनायां बकैया ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य 55 वर्षीय केशव माझी, 55 वर्षीय युवराज माझी, 45 वर्षीय सन्तलाल माझी च मृताः सन्तीति मकवानपुर जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी नायब उपरीक्षकः पुष्कर बोगटी असूचयत। आहतानां जनानाम् उपचारः जायमानोस्तीति प्रहरिणा ज्ञापितम् वर्तते। मधेस प्रदेश सभायाः उपवेश अद्य प्रारभते। प्रदेशसभायाः उपवेश अद्य एकवादनाय आहूतोस्तीति प्रदेशसभा सचिवालयस्य सचिव वासु कोइराला असूचयत। सत्तानां दलानां सहमतेः अनन्तरम् अद्य उपवेश आहूतोस्तीति प्रदेशसभा सचिवालयेन ज्ञापितं वर्तते। परस्व उपवेक्ष्यमाणे प्रदेशसभायाः उपवेशे प्रदेशस्य मुख्यमन्त्री कृष्णप्रसाद यादवः विश्वासस्य मत ग्रहीष्यतीति कार्यक्रमः निर्धारितो वर्तते। एवमेव मधेसप्रदेशस्य तात्कालिकस्य सभामुखस्य रामचन्द्र मण्डलस्य पदमुक्तेः अनन्तरं रिक्तस्य सभामुखस्य प्रचयनस्य कार्यक्रमोऽपि निर्धारितो वर्तते इति च ज्ञापितमस्ति। अधिकार दुरूपयोगानुसन्धानायोगेन नेपाल नागरिकोड्डयन प्राधिकरणस्य प्रबन्धकस्य पोखरा क्षेत्रीय अन्तर्राष्ट्रिय विमानस्थलायोजना कार्यान्वयन शाखा प्रमुखस्य विनेश मुनकर्मी इत्यस्य विरूद्धे द्वाभ्यां कोटिभ्यां 500 लक्षेभ्योऽपि अधिकानां रूप्यकाणां भ्रष्टाचारस्य आरोपे न्यायिक निवेदनं पञ्जीकारितमस्ति। आयोगेन पदीय मर्यादया विपरीततया कार्यं विधाय सम्पद अर्जित्वा भ्रष्टाचारोभिहित इत्यारोपे मुनकर्मी इत्यस्य विरूद्धे काष्ठमण्डपवर्तिनी विशेष न्यायालये आरोपपत्रं पञ्जीकारितमस्तीति आयोगस्य प्रवक्ता गणेशबहादुर अधिकारी असूचयत् इति समाचारः।